एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। सांविधानिक परिषदः ह्यस्तनोपवेशेन सर्वोच्च न्यायालयस्य वरिष्ठस्य न्यायाधीशस्य भावि प्रधान न्यायाधीशपदे नियुक्तये विधीयमानां संस्तुतिं विवादरहितां विधातुं अतिरिक्तम् अध्ययनं विमर्शनञ्च कर्तुं निर्णीतमस्ति। उपवेशी सहभागिनः सदस्यः परिषदः निर्णयं निर्विवादं सम्पादयितुं निर्णयात् पूर्वं सर्वेष्वपि विषयेष् गभीरेण अध्ययनस्य विमर्शनस्य च आवश्यकता अस्ति इति परामृशन्। असैव भाद्रमासस्य एकत्रिंशे दिवसे आयोक्ष्यमाणे उपवेशी अस्मिन् विषये आवश्यक निर्णय करिष्यते इति उपसभामुख इन्दिरा राणा ज्ञापितवती। प्रधानमन्त्रिण केपी शर्मा ओलिन अध्यक्षतायाम् उपविष्टे उपवेशे प्रधान न्यायाधीश, प्रतिनिधिसभाया सभामुख, राष्ट्रसभाया अध्यक्ष, प्रतिनिधिसभाया विपक्षिदलस्य नेता, प्रतिनिधिसभाया उपसभामुखश्च सहभागिन आसन्। नेकपा एमाले दलस्य सचिवालय उपवेशेन दलस्य महासचिवेन शंकर पोखरेलेन प्रस्तुता वार्षिक कार्ययोजना पारितीकृता अस्ति। च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन उपवेशेन सुदृढाया राष्ट्रिय शक्तेः निर्माणस्य उद्देश्येन एमाले दलस्य वार्षिकी कार्ययोजना पारितीकृता वर्तते। नेकपा एमाले दलेन दलस्य सुदृढतायै निर्णायक राष्ट्रिय शक्तित्वेन स्थापनाय आगामिनं निर्वाचनं सफलीकर्तुं च अष्टादश सूत्रात्मिकी कार्ययोजना प्रस्तुता अस्ति। अस्याः एव कार्ययोजनायाः अनुसारेण दलस्य सर्वेऽपि निकायाः परिचाल्यन्ते इति महासचिवः शंकर पोखरेलः असूचयत्। एतत्पूर्वं भाद्रमासस्य अष्टादश एकोनविंश दिवसयोः उपविष्टेन एमाले दलस्य पोलिट ब्यूरो निकायस्य उपवेशेना राष्ट्रिय शक्तेः निर्माणस्य वार्षिकी कार्ययोजना पारितीकृता आसीत्। राष्ट्रपतिना रामचन्द्र पौडेलेन नेपालस्य वरिष्ठ महिला चिकित्सकाः सम्मानिताः सन्ति। नेपाल चिकित्सक संघेन पूर्वेद्युः शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते सम्मान कार्यक्रमे राष्ट्रपतिः पौडेलः दश महिला चिकित्साकर्मिणः सम्मानितवान्। सम्मानितेष् चिकित्सकेष् वुमेन इन मेडिसिन इन नेपाल इत्याख्येन चिकित्सा सम्मानेन डा रीता गुरूङ, डा शान्त कुमारी सापकोटा, डा हीरा तुलाधर, डा गीता सायमी, डा कल्पना सुवेदी उपाध्याय च वर्तन्ते। एवमेव वुमेन इन मेडिसिन इन नेपाल लाइफ टाइम अचीभमेन्ट इत्याख्येन चिकित्सा सम्मानेन डाक्टर सुनिता आचार्य, डाक्टर सुधा खकुरेल, डाक्टर विमला लाखे, डाक्टर मालती त्रिपाठी, डाक्टर अम्बिका श्रेष्ठश्च सम्मानिता वर्तन्ते। सर्वकारेण नवनिर्मितं धरहरा स्तम्भ भवनं संचालयितुं स्वीकृति प्रदानाय निर्णीतं वर्तते। मन्त्री परिषदः परह्य बृहस्पतिवासरस्य निर्णयान् सार्वजनिक कर्तुं ह्य सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ भूकम्पस्य पश्चात् पुनर्निर्मितस्य धरहरा स्तम्भ भवनस्य संचालनाय निर्णीतमस्ति इति असूचयत्। एवमेव उपवेशेन दक्षिण एशियोपक्षेत्रीय आर्थिक सहयोग विद्युत ट्रान्समिशन प्रणाली वितरणायोजनाया क्रियान्वयनाय ऐषयिक विकास कोषात् अनुदान सहयोगस्य सौविध्यपूर्ण ऋण सहायतायाश्च प्राप्तये नेपाल सर्वकारस्य पक्षतः कोषेण सह वार्तां विधातुं अर्थ मन्त्रालयस्य सहसचिवस्य नेतृत्वे वार्तासमूहं संघटयितुं च निर्णीतं वर्तते। अथ च उपवेशेन विभिन्नानां निकायानां कृते सहस्रं पञ्चाशत् चेति अस्थायी पदस्थानानि स्रष्टुं स्वीकृति प्रदानाय निर्णीतं वर्तते। एवमेव मन्त्री परिषदः उपवेशेन निवेश समितेः प्रमुख कार्यकारीधिकृतपदे सुशील गेवालिनं नियोक्तुं नेपाल प्रशासन सेवा समूहस्य पक्षतः राजपत्राङ्कित विशिष्ट श्रेण्या रिक्तपद सहसचिव महादेव पन्थम पदोन्नतिं विधाय लुम्बिनी प्रदेशस्य प्रमुख सचिव पदे पदस्थापनं विधातुं उद्योग वाणिज्यापूर्ति मन्त्रालयस्य सचिवं मधुसूदन बुर्लाकोटी इत्यमुं राष्ट्रिय तथ्याङ्क कार्यालयस्य प्रमुख तथ्याङ्काधिकारी पदे सुदूरपश्चिम प्रदेशस्य प्रमुख सचिवं हरिप्रसाद लम्सालं बागमती प्रदेशस्य प्रमुख सचिव पदे बागमती प्रदेशस्य प्रमुख सचिवं गोविन्द बहादुर कार्किणं उद्योग वाणिज्य पूर्ति मन्त्रालयस्य सचिव पदे च स्थानान्तरयितुं निर्णीतं वर्तते। प्रधानमन्त्री केपी शर्मा ओली सुर्खेत जनपदस्य निकटस्थानां क्षेत्राणां विकास निर्माणस्य क्रमे उत्पन्नानां समस्यानां समाधानं प्रति गभीरतां प्रकटयति। ह्यः काष्ठमण्डपे सुर्खेत उद्योग वाणिज्य संघस्य समूहेन सह सम्भूते मेलने प्रधानमन्त्री ओली विकास निर्माणस्य क्रमे उत्पन्नानां समस्यानां शीघ्रं समाधानाय प्रतिबद्धतां व्यक्तवान्। संघस्य याचनापत्रे सुर्खेत विमानस्थलस्य धावनमार्गस्य विस्तारस्य कोहलपुर सुर्खेत विद्युत प्रसारण मार्गस्य विस्तारस्य क्रमे वर्दिया राष्ट्रिय निकुञ्ज क्षेत्रस्य वृक्षाणां कर्तनस्य समस्यायाः भूमिहीनानां समस्यानां दीर्घकालिक समाधानस्य च विषयाः समाविष्टाः वर्तन्ते। बालबालिकासु निवेशनम् सुनिश्चित भविष्यस्य प्रारभणम् इति समाघोषेण अद्य षष्टितमः राष्ट्रिय बाल दिवसः समायोज्यमानो वर्तते। अवसरेऽस्मिन् प्रधानमन्त्रिणा केपी शर्मा ओलिना एतद् विक्रमवर्षस्य अभ्यन्तरे मार्गान् बालबालिका मुक्तान् विधातुं प्रतिबद्धता व्यक्ता अस्ति। षष्टितमस्य बाल दिवसस्य अवसरे शुभकामना सन्देशं प्रदत् प्रधानमन्त्री ओली बालबालिकानां कृते प्रतिकूलावस्थां निवार्य अनुकूलावस्थां स्रष्टुं बालमैत्री वातावरणं निर्मातुं च सर्वकारः प्रयासरतोऽस्तीति उक्तवान् वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः निगदति पूर्वाधार विकासाय देशे निवेशन मैत्री वातावरणं निर्मीयमाणं वर्तते। भौतिक पूर्वाधार यातायात मन्त्रालयस्य नेपालोद्योग परिसंघस्य निवेशन समितेश्च संयुक्तायोजनायाम् आयोजितस्य दिनद्वयात्मक नेपाल पूर्वाधार सम्मेलनस्य अन्तर्गते पञ्चम संस्करणस्य समापन कार्यक्रमे ह्य अध्यक्ष प्रचण्डः पश्चात्तन समये देशे निवेश मैत्री वातावरणं निर्मीय वर्तते वातावरणमिदं अतिरिक्तं प्रवर्ध्य अग्रे नेतव्यमिति च बलं प्रादात्। अध्यक्षः प्रचण्डः सार्वजनिक नैज सहकार्यस्य आधारेणैव नेपाले आर्थिक रूपान्तरणं सम्भवमस्ति नेपालस्य मूलार्थनीतिरेव इयं वर्तते इत्यतः नैज क्षेत्रेण विधीयमानः एवंविध प्रयासः राज्येन गभीरेण ग्रहणीयः इति प्रावोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति गणतन्त्रात्मक व्यवस्थायाः अनुसारेण विधौ समय सापेक्षं सुधारं कर्तुम् आवश्यकता वर्तते। काष्ठमण्डपे पूर्वेद्युः आयोजितायां सामुदायिक रेडियो प्रसारक संघस्य अष्टादश्यां साधारण सभायाम् अष्टमम् अधिवेशनं च उद्घाटयन् मन्त्री गुरूङ बहुदलीय व्यवस्थातः गणतन्त्रे प्राप्ते सत्यपि पञ्चायत कालिक विधेय अनुसारेणैव कार्यकरणे समस्या सृज्यमाना अस्ति इति धारणां व्यक्तवान्। ह्य एव षष्टितम राष्ट्रिय बाल दिवसस्य अवसरे काष्ठमण्डपस्य नक्सालवर्तिनी बाल मन्दिरे रेडियो नेपालेन बाल संघटनेन च आयोजिताम् बालगीत प्रतियोगिताम् उद्घाटयन् संचार सूचना प्रविधि मन्त्री गुरूङ रेडियो नेपालस्य बाल संघटनस्य च सहकार्याय निरन्तरताम् प्रदातुम् बलम् प्रदत्तवान्। तदवसरे मन्त्री गुरूङ देशे अस्थिर राजनीतेः कारणेन जनतायाम् औदासीन्यम् दृष्टमस्तीत्यतः सचेत व्यक्तिभिः विद्यार्थिभिः बौद्धिक जनैश्च राजनीतौ अभिरुचिः प्रकटनीया राजनीतिं समुचित दिशि नेतुम् भूमिका निर्वोढव्येति च बलं प्रादात्। कोशी प्रदेशस्य मुख्यमन्त्री हिक्मत कुमार कार्की मन्त्री परिषदि त्रीन् मन्त्रिणः एकं राज्यमन्त्रिणं च नियोज्य मन्त्री परिषदं विस्तारितवान् अस्ति। ह्य विराटनगरे आयोजिते समारोहे प्रदेश प्रमुखः परशुराम खापुङ नवनियुक्तान् मन्त्रिणः पदगोपनीयतयोः शपथम् अग्राहयत्। नवनियुक्तेषु मन्त्रीषु भौतिक पूर्वाधार विकास मन्त्रीपदे भूपेन्द्र राई उद्योग कृषि सहकारी मन्त्रीपदे खगेनसिंह हाङ्गाम पर्यटन वन वातावरण मन्त्रीपदे सदानन्द मण्डलश्च वर्तन्ते।